एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। आराश्रम अस्मिन् वर्षे धान्योत्पादने 0.04 अंकहि वृद्धि सम्भूता अस्ति। वर्तमान आर्थिक वर्षे 69 लक्ष्याणि 55,000 सहस्राणि 4,67 मेट्रिक टन मितस्य धान्योत्पादनम् संजातम् अस्तीति कृषि पशुपक्षी मन्त्रालयेन ह्य प्रकाशितायां विज्ञप्तौ उल्लिखितम् वर्तते। धान्य रोपण क्षेत्रफलस्य न्यूनीभूते सत्यपि धान्यस्य उत्पादनम् वर्धितम् अस्तीति मन्त्रालयेन ज्ञापितम् वर्तते। कोशी मधेश लुम्बिनी सुदूरपश्चिम प्रदेशेषु धान्योत्पादनस्य वृद्धावपि अन्येषु त्रिषु प्रदेशेषु धान्योत्पादने न्यूनता आगता अस्तीति मन्त्रालयेन ज्ञापितम् वर्तते। समस्थलेषु जनपदेषु घनस्य कुहरस्य कारणात् शैत्यस्य वर्धनात् सावधानताम् अवलम्बितुम् चिकित्सकाः अनुरुद्धा वर्तन्ते। विशेषतया बालेषु वृद्धेषु श्वास प्रश्वासस्य रोगीषु च समस्याः दृष्टाः सन्तीत्यतः सावधानताम् अवलम्बितुम् अनुरुद्धाः सन्ति। शैत्यात् संरक्षणार्थम् उष्णवस्त्राणि परिधातुम् रसपूर्णम् उष्णम् च वस्तु भोक्तुम् च चिकित्सकैः अनुरुद्धमस्ति। कोशी प्रदेश सर्वकारेण सम्पूर्ण क्षमतायाः प्रतिशतं दशशय्याः विपन्ना सहाय वर्गाणां रोगिणां कृते पृथक्कृत्य निःशुल्कम् उपचारं विधातुं नैज चिकित्सालयाः अनुरुद्धा वर्तन्ते। कोशी प्रदेशस्य स्वास्थ्य मन्त्रालयेन स्वास्थ्योपचारस्य क्रमे चिकित्सालयं प्राप्तानां विपन्ना सहाय वर्गाणां रोगिणां विवरणस्य अभिलेखीकरणं विधाय प्रतिवेदनञ्च प्रस्तोतुमपि नैज चिकित्सालयः निर्देशनेन सह अनुरुद्धा सन्तीति मन्त्रालयस्य जनस्वास्थ्य प्रशासकः सागर प्रसाद अवोचत्। निज चिकित्सालयैः निःशुल्कम् उपचारस्य आंशिक सेवायाः वा प्रापकानां रोगिणां विवरणं चातुर्मासिक रूपेण वार्षिक रूपेण च समाविश्य प्रतिवेदनं सार्वजनिकीकरणं तच्च प्रतिवेदनं सम्बद्ध निकाये प्रस्तोतव्यमिति मन्त्रालयेन व्यवस्था विहिता अस्ति। राष्ट्रिय गौरवस्य आयोजनान्तर्गतायाः बांके जनपदस्य शिक्षासेचनायोजनायाः 41% निर्माणकार्यम् सम्पन्नम् अस्ति। 260+2000 360+2000 आर्थिकवर्षात् आयोजनायाः प्रारम्भस्य 29 वर्षानन्तरम् एतदार्थिकवर्षम् यावत् आयोजनायाः 0.79% निर्माण कार्यम् सम्भूतमस्ति। 7,45 कोटिभि अनुमितेन वित्तेन प्रारब्धायाः आयोजनायाः 29 वर्षेषु व्यतीतेषु सत्सु 12% अनुमानिते व्यये संशोधन पुरस्सरम् 52,91 कोटयश्च रूप्यकाणि प्राप्तानि सन्तीति आयोजनायाः निर्देशकः राजु आचार्य असूचयत्। प्रधानमन्त्री केपी शर्मा ओली निगदति स्थानीय स्तराणाम् औचित्यम् स्थापयितुम् सेवायाम् प्रभावकारिताम् स्रष्टुम् च महिला जनप्रतिनिधिनाम् सक्रिया भूमिका वर्तते। ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली नगरपालिकानाम् ग्रामपालिकानाम् च औचित्य स्थापयितुम् महिला जनप्रतिनिधि अग्रेसरता प्रदर्शिता इति उदैरयत्। विगतकाले साक्षरता रहिता महिला अधुना शासनं विदधतीति विषय राजनीतिक परिवर्तनस्य उपलब्धिरस्तीति उदैरयत्। प्रधानमन्त्री ओली महिलासु करुणाया प्रेम्ण स्नेहस्य च भावना आधिक्येन भवतीत्यतः महिलानां भूमिकया सर्वेषु क्षेत्रेषु उत्कर्ष श्रेष्ठत्वञ्च वर्धते इति अभाषत। गृहमन्त्री रमेश लेखकः सीमितेषु साधन स्रोतसु सत्सु अपि परिणाममुखं कार्यं विधातुं प्रमुख जनपदाधिकारिणः सुरक्षा प्रमुखांश निर्देशति। गृहमन्त्रालयेन ह्य आयोजिते जनपद सुरक्षा समितेः श्रव्य दृश्य प्रविधेर्माध्यमेन उपविष्टे उपवेशे गृहमन्त्री लेखकः मादकौषध प्रयोग नियन्त्रणम् आत्महत्यायाः न्यूनीकरणम् यातायात दुर्घटना न्यूनीकरणम् चेति विषयः समाहोयस्य रूपेण वर्तन्ते इति उदैरयत्। मन्त्रालयेन विधिगतस्य नीतिगतस्य संरचनागतस्य च सुधारस्य कार्याणि अग्रेसारितानि सन्तीति चर्चयन् गृहमन्त्री लेखकः तदनुसारेणैव कार्यस्य गुणस्तरस्य संवर्धने बलं प्रादात्। पूर्व राष्ट्रपतिः विद्यादेवी भण्डारी नेकपा एमाले दलस्य वरिष्ठ उपाध्यक्षेण ईश्वर पोखरेलिन लिखितम् आमा सपना र ताराहरू इति नामकम् पुस्तकम् लोकाय अर्पितवती अस्ति। ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे पूर्व राष्ट्रपतिः भण्डारी संसारे मात्रा सम्बद्धः विषयः कदापि शब्दैः सम्पूर्णतया वर्णयितुम् न शक्यते इति चर्चयन्ति। सामाजिकार्थिक कठिनतायाम् सत्यामपि पोखरेलस्य मात्रा विशिष्टं नेतारं प्रसूय राजनीतौ महद् योगदानं प्रदत्तम् इति अभाषत। कार्यक्रमे नेपाली कांग्रेस दलस्य महामन्त्री विश्वप्रकाश शर्मा, एमाले दलस्य उपमहासचिव प्रदीप गेवाली, लेखक पोखरेलस्य लोकार्पितं पुस्तकम् आधृत्य धारणां व्यक्तवन्तः। प्रमुख प्रतिपक्षी दलेन नेकपा माओवादी केन्द्रेण संघीय संसद उपवेशम् आह्वातुम् अनुरूद्धमस्ति। दलस्य पेरिस डाँडा वर्तिनी केन्द्रीय कार्यालये पूर्वेद्यः उपविष्टेन उपवेशेन संघीय संसद उपवेशस्य आह्वानाय विलम्बनम् विधीयमानमस्ति इति उक्त्वा संसद उपवेशम् शीघ्रम् आह्वातुम् बल प्रदानाय निर्णीतम् इति प्रवक्ता अग्निप्रसाद सापकोटा अज्ञापयत्। एवमेव उपवेशे सामयिक राजनीतिक विषयेष् दलस्य रूपान्तरणस्य विषये च विमर्शनम् सम्भूतम् इति प्रवक्ता सापकोटा असूचयत्। माओवादी केन्द्रस्य स्थायी समितेः उपवेशः अद्य दिवा द्विवादने पुनः उपवेशनत्वेन ह्य स्थगितोऽस्ति। लोकसेवा आयोगस्य अध्यक्षः माधव रेग्मे देशस्य सर्वकारीयं प्रशासनं सक्षमं पारदर्शी उत्तरदायित्व विधातुं विधि निर्माणार्थं बलं ददाति। प्रतिनिधिसभा अन्तर्गतायाः राज्य व्यवस्था सुशासन समितेः ह्यस्तनोपवेशे अध्यक्षः रेग्मे अनुभवनम् अनुसन्धानं दृष्टं प्रतिफलं च आधृत्य आयोगेन सर्वकारीय सेवायां प्रवेशस्य द्वात्रिंशत् वर्षाणि, समावेशिनां कृते सप्तत्रिंशत् वर्षाणि च निर्धारयितुं प्रस्तावः प्रस्तुतोऽस्ति इति समस्पष्टयत्। उपवेशे सांसदाः सर्वकारीय सेवा सम्बद्धेषु विषयेषु विभिन्नान् प्रश्नान् उत्थापितवन्तः। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ निगदति भाषा संस्कृतयश्च अस्माकं परिचायकः वर्तन्ते। नेपाल मगर संघेन ह्य पोखरायाम् आयोजितस्य सांस्कृतिक महोत्सवस्य उद्घाटनं विदधानः मन्त्री गुरूङ विभिन्नेषु स्थानेषु अवरोधस्य कारणेन दृष्टानां नीतिगत समस्यानां समाधानाय एकादश विधिन् निर्माय तेषां संसदि पारितीकरणाय पूर्वकार्यं विहितमस्ति इति असूचयत्। मन्त्री गुरूङ संविधानस्य मूलमर्मभूतेषु संघीयता, धर्मनिरपेक्षता, समानुपातिक समावेशी व्यवस्था प्रभृतिषु विषयेषु संशोधनं विधातुं न शक्यते इति समस्पष्टयत्। स्वास्थ्य सुरक्षण कोषस्य सुधाराय संघटितया समित्या स्वास्थ्य जनसंख्या मन्त्रिणे प्रदीप पौडेलाय प्रतिवेदनं हस्तान्तरितं वर्तते। मन्त्रालये ह्य आयोजिते प्रतिवेदन हस्तान्तरण कार्यक्रमे स्वास्थ्य मन्त्री पौडेलः प्रतिवेदनेन दर्शितानां विषयाणां क्रियान्वयनं करिष्यते इति प्रतिबद्धतां व्यक्तवान्। मन्त्री पौडेलः वर्तमान स्वास्थ्य सुरक्षण कोष कार्यक्रमः व्यवस्थितः सम्भूतो नास्ति, लक्षित समूहेन पूर्णरूपेण लाभं ग्रहीतुं शक्तं नास्तीति च उक्त्वा प्रतिवेदनेन विषयेऽस्मिन् कार्यं कर्तुं सहयोगो मेलिष्यतीति विश्वासं व्यक्तवान् इति समाचारः।